इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। पश्चिम एशिया संघर्षेण उद्भूतस्य वैश्विक ऊर्जा संकटकालस्य मध्ये प्रधानमन्त्रिणः नरेन्द्र मोदिनः आवाहनस्यानन्तरं केन्द्र राज्ययोः ईंधन संरक्षणस्य उपायाः तीव्राः जाताः। केन्द्रीय मन्त्रिमण्डलेन चतुर्दश खरीफेति ग्रैष्मिक सस्यानां न्यूनतम समर्थन मूल्यं स्वीकृतम्। सूर्यपुष्पस्य बीजस्य सर्वाधिक वृद्धिः, तदनन्तरं कर्पासतिलयोः च। तमिलनाडु राज्ये सी जोसेफ विजयस्य नेतृत्वे टीवी के सर्वकारेण राज्य विधानसभायां सहज बहुमतेन शक्ति परीक्षणं विजितम्। एन रंगसामी पंचमं वारं पुडुचेरी राज्यस्य कार्यकालाय मुख्यमंत्री रूपेण शपथं स्वीकृतवान्। अपि च सीबीएसई द्वारा अखिल भारतीय वरिष्ठ माध्यमिक वर्गस्य द्वादशी कक्षायाः परीक्षा परिणामाः घोषिताः। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी विशेष रक्षा समूहस्य एसपीजी प्रोटोकॉल इत्यस्यान्तर्गतं सर्वाः आवश्यकाः सुरक्षा व्यवस्थाः अवलम्ब्य सद्यः एव आन्तरिक यात्रासु स्वस्य यात्रावाहनानां संख्या न्यूनीकृतवान्। सूत्रानुसारं प्रधानमन्त्रिणः यात्रावाहनानां संख्यायां न्यूनीकरणं तस्य सद्यः गुजरातस्य असमराज्यस्य च भ्रमणकाले कार्यान्वितम्। आर्थिक स्थिरतायै योगदानाय नागरिकान् प्रति प्रधानमन्त्रिणः सप्ताग्रहाणाम् अनुरूपम् एतदभवत्। प्रधानमन्त्रिणः नरेन्द्र मोदिनः आग्रहानन्तरं केन्द्रीय गृहमन्त्री अमितशाहेन उत्तरप्रदेशस्य मध्यप्रदेशस्य दिल्ल्याः च मुख्यमन्त्रिभिः विधायकैः जनप्रतिनिधिभिः च आधिकारिकयानानां संख्या 50% यावत् न्यूनीकर्तुम् आदेशः प्रदत्तः। प्रधानमन्त्री नरेन्द्र मोदी शुक्रवासरे संयुक्त अरब अमीरात, नीदरलैंड्स, स्वीडन, नॉर्वे, इटली देशानां षड् दिवसीय यात्रां करिष्यति। अद्य सायंकाले नवदिल्ल्यां प्रसारमाध्यमान् संबोधयन् विदेश मन्त्रालयस्य सचिवः सीबी जॉर्जः संसूचितवान् यत् पञ्चदेशानां यात्रायाः प्रथमे चरणे श्रीमोदी शुक्रवासरे संयुक्त अरब अमीरात देशं प्राप्स्यति, यत्र हि सः राष्ट्रपतिना शेख मोहम्मद बिन जायद अल नाहियान इत्यनेन सह मेलनं करिष्यति। सः अवदत् यत् उभौ नेतारौ द्वैपाक्षिक विषयेषु विशेषतः ऊर्जा सहकारे अपि च परस्पर हितसम्बद्धेषु क्षेत्रीय अन्ताराष्ट्रिय विषयेषु च विचार विनिमयं करिष्यतः। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य 98.19 वर्षे अस्मिन्नेव दिने भारते कृत परमाणु परीक्षणस्य स्मरणं कृतम्। सामाजिक माध्यमेषु एकं संस्कृत सुभाषितं विनिमयी कुर्वन् प्रधानमन्त्री उक्तवान् यत् एतत् परमाणु परीक्षणं देशस्य अविचल संकल्पं प्रदर्शयति। श्रीमोदी अवदत् यत् अस्य परीक्षणस्यानन्तरं सम्पूर्णेन विश्वेन भारतं सम्पीडितम्, परञ्च देशेन सिद्धीकृतं यत् कापि शक्तिः भारतम् अवरोद्धुं न शक्नोति। केन्द्रीय मन्त्रिमण्डलेन विपणन सत्रस्य 27.5-2017 कृते चतुर्दश खरीफ इति ग्रैष्मिक सस्यानां न्यूनतम समर्थन मूल्ये वृद्धिं स्वीकृतम्। केन्द्रीय मन्त्रिमण्डलस्य सभायाः अनन्तरं प्रसारमाध्यमान् सम्बोधयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् सर्वकारेण ग्रैष्मिक सस्यानां न्यूनतम समर्थन मूल्यं वर्धितम् अस्ति, येन उत्पादकेभ्यः तेषाम् उत्पादानां कृते लाभप्रदं मूल्यं सुनिश्चितं भविष्यति। सः अवदत् यत् ग्रैष्मिककालस्य कृते कृषकाणां कृते प्रायः 60,000-2,00,000 रूप्यकाणि प्रदीयन्ते। सः अवदत् यत् अस्मिन् ऋतौ 24,800,000 मैट्रिक टन इत्यतोप्यधिकानि सस्यानि प्राप्तानि भविष्यन्ति। श्रीवैष्णवः अवदत् यत् एमएसपी मध्ये सर्वाधिकं 22,600 रूप्यकाणि प्रति क्विंटल वृद्धि सूर्यमुखी बीजानां कृते अनुशंसितम्। तदनन्तरं 57,500 रूप्यकाणि प्रति क्विंटल कर्पासस्य कृते, 500 रूप्यकाणि प्रति क्विंटल तिलस्य कृते च अनुशंसितमस्ति।
खरीफ के लिए जो फैसला लिया गया उसमें जितने भी खरीफ के क्रॉप्स हैं उन सब में कॉस्ट प्लस 50% या 50 से अधिक टोटल 260,000 करोड़ रुपए किसानों को पे आउट जाएगा इस पूरे फैसले से। और इस साल का एनुअल खरीफ प्रोक्योरमेंट होगा 824 लाख मेट्रिक टन LMT।
प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन AIR चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय मन्त्रिमण्डलेन भू अंगारस्य तथा लिग्नाइट गैसिफिकेशन परियोजनायाः प्रोत्साहनाय 37.5 कोटि रूप्यकाणां वित्तीय व्ययस्य योजना अनुमोदिता। प्रसारमाध्यमान् सम्बोधयन् केन्द्रीय सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् इयं योजना भारतस्य अंगारस्य लिग्नाइट गैसिफिकेशन इत्यस्य च कार्यक्रमं गतिप्रदानाय प्रमुखं पदाक्षेपमस्ति। श्रीवैष्णवः अवदत् यत् योजनायाः अन्तर्गतं 3 लक्ष कोटि रूप्यकाणां अपेक्षित निवेशः भविष्यति।
कोल भारत में करीब करीब 400 बिलियन टन के नोन रिजर्व्स है, तो इस कोयले का ज्यादा से ज्यादा उपयोग करके हम इससे गैस बना सके और गैस का उपयोग फिर फर्टिलाइजर वगैरह में, ताकि फर्टिलाइजर के लिए जो LNG इंपोर्ट करनी पड़ती है वो कम हो जाएगी। 37,500 करोड़ रुपीज का आउटले इस स्कीम के लिए रखा गया है और करीब 3 लाख करोड़ का इन्वेस्टमेंट होगा इसमें टोटल, और 75 मिलियन टन कोल को इसमें गैसिफाई करने के लिए प्रोजेक्ट्स लगेंगे।
तमिलनाडु राज्ये सी जोसेफ विजयस्य नेतृत्वे तमिलगा वेट्रिकझगम दलस्य सर्वकारेण तमिलनाडु विधानसभायां बहुमत परीक्षणं विजितम्। चतुश्चत्वारिंशोत्तरैकशत विधायकाः पक्षे मतदानं कृत्वा सभायां स्पष्टं बहुमतं प्रदर्शितवन्तः। अत्रांतरे 22 विधायकाः विश्वासप्रस्तावस्य विरुद्धं मतदानं कृतवन्तः। कार्याचरणावधौ प्रमुखः विपक्षिदलं DMK विधानसभा सदनात् बहिरगच्छत्। सद्यैव समाप्तेः विधानसभा निर्वाचने तस्य दलेन केवलम् 88 शतासनानि प्राप्तानि आसन्। तमिलनाडोः राज्यपालेन राजेन्द्र विश्वनाथ आर्लेकरवर्येण विजयाय सदने बहुमतं साधयितुम् आज्ञापितमासीत्। अखिल भारतीय राष्ट्रीय कांग्रेस दलस्य नेता एन रंगासामी अद्य पुदुचेरी राज्यस्य मुख्यमंत्री रूपेण पंचमं वारं शपथ ग्रहणं कृतवान्। लोकनिवासे आयोजिते समारोहे पुदुचेरी नगरस्य उपराज्यपालः के कैलासनाथन वर्यः पदस्य गोपनीयतायाः च शपथ ग्रहणं कारितवान्। दलस्य मल्लादी कृष्णरावः भाजपेति दलस्य एन नमशिवायं च अस्मिन् समारोहे मंत्री रूपेण शपथं स्वीकृतवन्तः। भारत ऋतु विभागेन अद्य राजस्थान राज्ये उष्णतरंगस्य कृते रेड अलर्ट इति रक्तवर्णीया संचेतनायाः सूचना प्रसारिता। गुजरात राज्ये, महाराष्ट्रे, पश्चिम मध्य प्रदेशे च श्वः यावत् उष्णतरंगस्य स्थितिः भवितुम् अर्हति। अपि च अद्य हिमाचल प्रदेशे, उत्तराखण्डे च ओलावृष्ट्या सह वर्षायाः संभावना विद्यते। अद्य दिल्ली, चंडीगढ़, हरियाणा, जम्मू कश्मीर, उत्तर प्रदेश, झारखंड, पंजाब इत्येतेषु प्रदेशेषु विद्युत सहित वृष्टि, तीव्र वायु वेगः च भविष्यति इति भारत ऋतु विभागेन पूर्वानुमानितम्। केन्द्रीय माध्यमिक शिक्षा परिषदा 12 कक्षायाः परीक्षा परिणामाः प्रसारिताः। छात्राः आधिकारिक वेबसाइट डिजिलॉकर इत्यत्र, उमंग ऐप इत्यत्र च स्वानुक्रमान् प्रविश्य परिणामं द्रष्टुं शक्नुवन्ति। अस्मिन् वर्षे केन्द्रीय माध्यमिक शिक्षा परिषदा 12 कक्षायाः फरवरी मासस्य 17 दिनांकतः अप्रैल मासस्य 10 दिनांकपर्यन्तं लक्षोपलक्ष छात्राणां कृते परीक्षा आयोजिता। अन्ते मुख्यवार्ताः पुनः एकवारम्। पश्चिमेशिया संघर्षेण उद्भूतस्य वैश्विक ऊर्जा संकटकालस्य मध्ये प्रधानमन्त्रिणः नरेन्द्र मोदिना आवाहनस्य अनन्तरं केन्द्रराज्ययोः ईंधन संरक्षणस्य उपायाः तीव्राः जाताः। केन्द्रीय मन्त्रिमण्डलेन 14 खरीफेति ग्रैष्मिक सस्यानां न्यूनतम समर्थन मूल्यं स्वीकृतम्। तमिलनाडु राज्ये सी जोसेफ विजयस्य नेतृत्वे TVK सर्वकारेण सहज बहुमतेन शक्षिपरीक्षणं विजितम् इति वार्ताः।